एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्री केपी शर्मा ओली अद्य प्रतिनिधि सभायाः उपवेशे विश्वासस्य मतम् गृह्णाति। प्रधानमन्त्रिणः ओलिनः अद्य प्रतिनिधि सभायाः उपवेशे विश्वास मतस्य ग्रहणस्य प्रस्तावस्य प्रस्तुतेः कार्यसूची वर्ततेति संसद सचिवालयेन ज्ञापितमस्ति। प्रतिनिधि सभायाः उपवेश अद्य दिवा एकवादने वसति। अत्रान्तरे प्रधानमन्त्रिणः ओलिनः विश्वासस्य मतग्रहणस्य क्रमे उपवेशे अनिवार्येण उपस्थातुम् प्रधानमन्त्रिणः पक्षे एव मतम् दातुम् च नेकपा एमाले दलेन स्वदलीय सांसदाः निर्दिष्टाः सन्ति। एमाले संसदीय दलस्य मुख्य सचेतक पदीयो महेश वर्तौला अद्य उपविश्यमाने प्रतिनिधि सभायाः उपवेशे प्रधानमन्त्रिणे ओलिनः पक्षे एव मतम् दातुम् दलस्य सांसदान् निरदिशत। विषयेऽस्मिन् निर्णयार्थम् नेपाली कांग्रेस संसदीय दलस्य उपवेश अद्य वसति। संघीय संसद भवनस्य लोत्से प्रकोष्ठे अद्य मध्याह्ने द्वादशवादने आयोज्यमाने उपवेशे प्रधानमन्त्रिणे केपी शर्मा ओलिने विश्वासस्य मतस्य प्रदानस्य विषयेण सहैव सामयिकेषु विषयेषु विमृक्ष्यते इति नेपाली कांग्रेस दलेन ज्ञापितमस्ति। नेकपा माओवादी केन्द्रेण राष्ट्रिय स्वतन्त्र दलेन नेकपा एकीकृत समाजवादी दलेन च प्रधानमन्त्रिणे ओलिने विश्वासस्य मतम् नदातुम् निर्णीतमस्ति। संसदि कस्यापि दलस्य बहुमतस्य प्राप्तेः अभावस्य दशायाम् द्वयोः तदधिकानाम् वा दलानाम् समर्थनेन नियुक्तेन प्रधानमन्त्रिणा त्रिंशतो दिवसानाम् अभ्यन्तरे प्रतिनिधिसभातः विश्वासस्य मतस्य ग्रहणस्य सांविधानिकी व्यवस्था वर्तते। नेपाली कांग्रेस नेकपा एमाले दलयोर्मध्ये आषाढस्य सप्तदशे दिवसे धृतायाः सहमतेरनुसारेण एमाले दलाध्यक्ष केपी शर्मा ओली संविधानस्य षट्सप्ततितम्याः धारायाः द्वितीयोपधारायाः अनुसारेण गताषाढस्य त्रिंशे दिवसे प्रधानमन्त्रिपदे नियुक्तो वर्तते। लुम्बिनी प्रदेशस्य मुख्यमन्त्री अद्य प्रदेशसभायां विश्वासस्य मतम् गृह्णाति। लुम्बिनी प्रदेशसभायाः अद्य दिवा उपविश्यमाने उपवेशे मुख्यमन्त्री जोखबहादुर महरा विश्वासस्य मतम् गृह्णातीति प्रदेशसभायाः सचिव दुर्लभ कुमार पुन अज्ञापयत्। केन्द्रे सत्ता समीकरणस्य परिवर्तनेन सहैव हिमालय दलेन स्वस्य समर्थनस्य प्रत्यावर्तनानन्तरम् मुख्यमन्त्रिणा महरा विधेन अद्य विश्वासस्य मतम् गृह्यमाणम् वर्तते। एवमेव बागमती प्रदेशस्य मुख्यमन्त्री शालिकराम जमकट्टेलश्च अद्य प्रदेशसभायां विश्वासस्य मतम् गृह्णाति। अद्य दिवा एकवादने उपविश्यमाने प्रदेशसभायाः उपवेशे मुख्यमन्त्री जमकट्टेलः विश्वासस्य मतम् गृह्णाति। केन्द्रे सत्ता समीकरणस्य परिवर्तनेन सहैव एमाले दलेन सर्वकाराय प्रदत्तस्य समर्थनस्य प्रत्यावर्तनस्य मन्त्रिभि त्यागपत्रस्य च प्रदानानन्तरम् अद्य मुख्यमन्त्रिणा विश्वासस्य मतम् गृह्यमाणमस्ति। अत्रान्तरे बागमती प्रदेशस्य नेकपा एमाले दलस्य संसदीय दलेन मुख्यमन्त्रिणा जमकट्टेलस्य विपक्षे मतम् दातुम् निर्णीतमस्ति। परराष्ट्र मन्त्रालयेन बंगलादेशे विकसितस्य पश्चात्तन घटनाक्रमस्य कारणेन समस्यायां स्थितानां नेपाली विद्यार्थिनां कृते सहयोग सम्पर्क कक्षा स्थापितोऽस्ति। मन्त्रालयेन ह्य सूचनाम् प्रकाश्य तत्र स्थितानाम् विद्यार्थिनाम् सौविध्याय आवश्यक सम्पर्क व्यक्त्या सहितः सहयोग सम्पर्क कक्ष स्थापितोऽस्तीति ज्ञापितमस्ति। समस्याग्रस्तानाम् विद्यार्थिनाम् अभिभावकानाम् परिवारजनानाम् च कृते आवश्यक सूचनायै सहयोगाय सहजीकरणाय च मन्त्रालयेन निर्धारिते स्थले ईमेल सम्पर्कम् विधातुम् दूरभाषम् कर्तुम् अनलाइन आवेदन प्रपत्रम् पूरयितुम् च अनुरुद्धमस्ति। ढाकावर्तिनः सहयोगाय ढाकावर्तिना नेपाली राजदूतावासस्य द्वितीय सचिवः योजना बमजन रिया क्षेत्री एवं सिंहप्रसाद वर्तिनी मन्त्रालये शाखाधिकृतः महेश्वरमणि त्रिपाठी च सम्पर्क व्यक्तयः निश्चिताः वर्तन्ते। नारायणगढ़ मोङलिङ मार्ग खण्डस्य सिमलताल स्थाने भूस्खलनेन त्रिशूली नद्याम् निमग्नयो द्वयो बसयानयो तत्र आरूढानाम् यात्रिणाम् च अन्वेषणाय भारतीयान्वेषक समूह परिचालितोऽस्ति। भारतीय राष्ट्रिय आपद मोक्ष बलस्य द्वादश सदस्यात्मक समूह अन्वेषणाय ह्यैव घटनास्थले प्राप्तो वर्तते। गत आषाढ मासस्य अष्टाविंशे दिवसे शुक्रवासरे वीरगंज नगरात् काष्ठमण्डपम् प्रति प्रस्थितम् काष्ठमण्डपात् रौतहट जनपदस्य गौरस्थानम् प्रति गच्छत् च बसयानद्वयम् चितवन जनपदस्य सिमलताल स्थाने भूस्खलनेन सहैव त्रिशूली नद्याम् निमग्ने आस्ताम्। अद्य ज्ञानदातारम् गुरुम् प्रति श्रद्धा भक्ति प्रकटय्य गुरुपूर्णिमा दिवसः समायोज्यते। प्राचीन कालस्य गुरुकुल शिक्षायाः प्रारब्धेऽस्मिन् दिवसे विद्यार्थिनः विद्या विनय शिष्टता प्रदर्शन प्रसरम् कर्तव्याकर्तव्ये प्रशिक्ष्य उज्ज्वल भविष्यस्य मार्गद्रष्टारम् गुरुम् यथोचितम् सम्मानयन्ति। गुरोः उपदेशम् विना जनमानसे यथार्थ ज्ञानम् न समुदेति इत्यतः गुरुः ब्रह्म विष्णु महेश्वरवत् सम्मान्यो भवतीति शास्त्रेषु गुरोर्महत्वम् वर्णितम् वर्तते। गुरुपूर्णिमायाः अवसरे अद्य विशेषतः शिक्षण संस्थासु विविध कार्यक्रमाः आयोज्यन्ते। अद्यैव व्यास जयन्ती च ज्ञाननिधिम् व्यासम् प्रपूज्य आयोज्यते। नेपालस्य प्रथम जननिर्वाचितः प्रधानमन्त्रिणः दिवंगतस्य विश्वेश्वर प्रसाद कोइरालाभिधस्य एकचत्वारिंशत् स्मृति दिवसः अद्य विविधैः कार्यक्रमैः समायोज्यमानो वर्तते। वरिष्ठ साहित्यकारः जननेता च विश्वेश्वर प्रसाद कोइराला एकोनचत्वारिंशदधिक द्विसहस्रतम वैक्रमाब्दस्य श्रावण मासस्य षष्ठे दिवसे दिवंगतः आसीत्। असौ एकसप्तत्युत्तरैकोनविंशशततम वैक्रमाब्दस्य भाद्रमासस्य चतुर्विंशे दिवसे जातः आसीत्। पञ्चदशोत्तर द्विसहस्रतमे वैक्रमाब्दे सम्पन्नस्य प्रथम संसदीय निर्वाचनस्य अनन्तरम् षोडशोत्तर द्विसहस्रतम वैक्रमाब्दस्य ज्येष्ठमासे नेपालस्य इतिहासे एव प्रथम जननिर्वाचितः प्रधानमन्त्री सम्भूतः आसीत्। सप्तदशोत्तर द्विसहस्रतम वैक्रमाब्दस्य पौषमासस्य प्रथम दिवसे तात्कालिकेन राज्ञा महेन्द्र शाहविधेन असौ प्रधानमन्त्री पदात् निष्कासितः आसीत्। ततः अष्टौ वर्षाणि यावत् काष्ठमण्डपस्य सुन्दरी जलस्थाने कारागारवासे स्थापितः आसीत्। कारागारे अनेन सहैव नेपाली कांग्रेस दलस्य गणेशमान सिंह कृष्ण प्रसाद भट्टराई प्रवृत्तय अन्य नेतारश्च आसन्। ततः पञ्चविंशत्यधिक द्विसहस्रतम वैक्रमाब्दात् त्रयस्त्रिंशदधिक द्विसहस्रतम वैक्रमाब्दम् यावत् अष्टौ वर्षाणि कोइराला भारतदेशे निर्वासितः आसीत्। नेपालस्य राष्ट्रियता एवं संकटे अस्तीति कथयन् आत्मनः कृते उद्घुष्टम् प्राणदण्डमपि अविचार्यैव असौ त्रयस्त्रिंशदधिक द्विसहस्रतम वैक्रमाब्दस्य पौषमासस्य षोडश दिवसे नेपालम् प्रत्यागतः आसीत्। नेपाली साहित्यस्य आख्यानविधायामपि कोइरालाभिधस्य महत्वपूर्णम् योगदानम् वर्तते। पेयजल मन्त्री प्रदीप यादवः काष्ठमण्डपवासिभ्यो जनेभ्य मेलञ्ची नद्याः अप्राप्तिम् यावद् वैकल्पिक माध्यमेन पेयजलम् वितर्तुम् निर्दिशति। ह्यः सुन्दरी जलस्थानवर्तिनः मेलञ्ची भूमिगत जलसरण्याः निरीक्षणम् विदधानो मन्त्री यादवः वर्षायामे मेलञ्ची नद्याः जलानयनस्य असम्भवावस्थायाम् अन्य स्रोतोभ्यः जलस्य व्यवस्थापनम् विधातुम् निरदिशत। मन्त्री यादवः बागमती नद्याः जलस्य भूमिगत जलस्य च प्रशोधनम् विधाय वितरणस्य व्यवस्थाम् विधातुम् अपि निरदिशत् इति समाचारः।